एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। नेपाल सर्वकारस्य मुख्य सचिव पदे रक्षा मन्त्रालयस्य सचिव सुमन राज अर्याल नियुक्तोऽस्ति। ह्य उपवेशेन मन्त्री परिषद उपवेशेन अर्याल अद्यतन दिवसात् क्रियान्वयनत्वेन मुख्य सचिव पदे नियुक्तोऽस्तीति शिक्षा विज्ञान प्रविधि मन्त्री महावीर पुन असूचयत्। वयसः सिम्नः कारणात् अष्टापञ्चाशत् वर्षीय वर्तमान मुख्य सचिव एकनारायण अर्याल श्वस्तन दिवसात् सेवानिवृत्तो भविष्यति। नेपाल सर्वकारेण भैरहवावर्तिनी विशेषार्थिक क्षेत्र संचालन सम्बद्धम् एक सप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीयम् मापदण्ड कार्यविधिम् निरसयितुम् निर्णीतमस्तीति मन्त्री पुन अज्ञापयत्। एवमेव मन्त्री परिषद उपवेशेन विशेषार्थिक क्षेत्रस्य मासिक शुल्कम् प्रति वर्ग मीटर मितम् विंशतेः रूप्यकाणाम् स्थाने पञ्च रूप्यकाणाम् व्यवस्था विहितास्तीति मन्त्री पुन असूचयत्। उपवेशेन यूरोपियन यूनियन संघस्य ग्रीन एण्ड रिलायबल इनर्जी फर इकोनोमिक प्रोस्पेरिटी इन नेपाल इति परियोजनायाः कृते सार्धत्रयोविंशत्यधिक मिलियन यूरो मुद्राः सहयोग स्वरूपेण स्वीकर्तुम् निर्णीतमस्ति। एवमेव सर्वकारेण वैद्युत नियमनायोगाय साउथ एशिया फर इन्फ्रास्ट्रक्चर रेगुलेशन इति संस्थायाः सदस्यताम् स्वीकर्तुम् स्वीकृतिः प्रदत्ता अस्ति इति मन्त्री पुन असूचयत्। एवमेव द्वाविंशत्युत्तर द्विसहस्रतम विक्रम वर्षीयम् भूमि सम्बद्धम् नवम संशोधनाध्यादेशम् क्रियान्वयितुम् राष्ट्रपतेः समक्षम् प्रस्तुतम् निर्णीतमस्ति। अद्य विवाह पञ्चमी पर्व नेपाले सभक्ति भगवतः रामचन्द्रस्य मातुः जानक्याश्च पूजाराधने विधाय समादृयते। अवसरेऽस्मिन् जनकपुरे महत् धार्मिक मेलापकम् आयोजितमस्ति, यत्र देशस्य सुदूर भूभागेभ्यः भारतदेशाच्च श्रद्धालवो भक्तजनाः सम्प्राप्ताः वर्तन्ते। अद्य प्रत्युषादेव धनुष सागर गंगा सागरयोः स्नानम् विधाय भगवतः श्रीरामचन्द्रस्य जगज्जनन्याश्च दर्शन पूजनार्थम् श्रीराम जानक्योः मन्दिरयोः दर्शनार्थिनाम् सम्मर्दो वर्तते। पुरा त्रेतायुगे मर्यादा पुरूषोत्तमेन श्रीरामेण राजर्षेर् जनकस्य प्रतिज्ञाम् प्रपूर्य तदीय सुपुत्र्या सीतया सह अस्यामेव तिथौ विवाहो विहित इत्यालक्ष्य भक्तसज्जन महाजन पूजक कीर्तकानाम् भव्या वरयात्रा राम मन्दिरात् जानकी मन्दिरम् यत्य उभयो आदर्श पात्रयोर्विवाहम् सम्पादयति। इयम् शोभायात्रा सवाद्यवादनम् जनकपुर नगरम् परिक्रामति। नेपाल भारतयोर्मध्ये बहुभ्यः शतकेभ्यः स्थापितम् धार्मिक सांस्कृतिक सामाजिक राजनीतिक सम्बन्धम् इतोऽपि दृढयितुम् अनेन पर्वणा सातिशयम् महत्वपूर्णा भूमिका निर्व्यूढा वर्तते। जेन्जी युव सन्ततेः आन्दोलनस्य क्रमे सर्वोच्च न्यायालये अग्निदाहस्य त्रोटनस्य भञ्जनस्य च कारकः पञ्चजनाः पूर्वेद्युः प्रहरिणा निगृह्य सार्वजनीकृताः वर्तन्ते। निगृहितेषु जनेषु राजु परियार कुमार पराजुली सुशील श्रेष्ठ ज्योति थापा घतानी च सन्तीति। ह्य काष्ठमण्डपे आयोजिते पत्रकार सम्मेलने जनपद प्रहरी परिसरस्य प्रवक्ता पवन कुमार भट्टराय असूचयत्। प्रहरिणा एकस्य जनस्य परिचय प्रदत्तो नास्ति। न्यायालय अग्निदाहस्य कारकाणाम् अन्येषाम् जनानां च परिचय अन्विष्टो स्थिति ज्ञापयन् प्रवक्ता भट्टराय तेष जनाः शीघ्रमेव विधेय परिधौ आनेष्यन्ते एवेति अवोचत्। न्यायालये अग्निदाहकान् जनान् अन्विष्य दण्डयितुम् सर्वोच्च न्यायालयेन जनपद प्रहरी परिसरे निवेदनम् पञ्जीकारितम् आसीत्। प्रहरी परिसरे काष्ठमण्डपे जेन्जी युव सन्ततेः आन्दोलनस्य क्रमे अग्निदाहेन त्रोटन भञ्जनाभ्याम् आपराधिकोपद्रवेण च सम्बद्धानि चतुरधिकैकशतम् निवेदनानि पञ्जीकारितानि वर्तन्ते। तेषु द्वाविंशतिः वैयक्तिकानि, षट्षष्टिः सर्वकारीय कार्यालयानि, षोडश संस्थागतानि व्यावसायिक प्रतिष्ठान सम्बद्धानि च सन्तीति प्रहरी परिसरेण ज्ञापितम् वर्तते। आन्दोलनस्य क्रमे काष्ठमण्डपे एव एकोनपञ्चाशत् जनाः मृताः आसन् इति प्रहरिणः तथ्याङ्को वर्तते। तेषु सप्तजनाः इदानीमपि असत्यापितः वर्तन्ते। संचार सूचना प्रविधि मन्त्री जगदीश खरेलः भाषते आगामिनः फाल्गुन मासस्य एकविंशे दिवसे एव प्रतिनिधिसभा सदस्यानां निर्वाचनं भविता। दोलखा जनपद समन्वय समिति सभाकक्षे सम्भूते कार्यक्रमे मन्त्री खरील सर्वकारेण निर्वाचनस्य वातावरणं निर्मीयमाणमस्तीत्यतः निर्वाचनं न भविष्यति वा इति भ्रमम् अपसार्य कार्यं कर्तुं सम्बद्ध कार्यालय प्रमुखान् निरदिशत्। सर्वकारेण जनजी युव सन्ततेः आन्दोलनस्य क्रमे क्षतिग्रस्तानां गृहाणां संरचनानां च पुनर्निर्माण कार्यम् अग्रेसारितमस्ति। क्षतिग्रस्तानां सर्वकारीय नैज संरचनानां पुनर्निर्माणस्य कार्यम् सर्वकारेण औपचारिकरूपेण अग्रेसारितमस्ति इति नगरीय विकास मन्त्रालयस्य सचिवः गोपाल प्रसाद सिग्देलः असूचयत्। सचिवस्य सिग्देलस्य अनुसारेण आन्दोलनस्य क्रमे आसन्न सहस्रद्वय शतद्वय च गृहसंरचना स्वीकृतिः प्रापिता आसीत्। एषु सहस्रं शतत्रयञ्च सर्वकारीय भवनानि वर्तन्ते। लुम्बिनी प्रदेशसभायाः शीतकालिकाधिवेशनम् ह्यस्तन दिवसात् प्रारब्धमस्ति। शीतकालिकाधिवेशने विमर्शनार्थं प्रदेशसभा सचिवालये जनपदसभायाः जनपद समन्वय समितेः सञ्चालनेन सम्बद्धं 75+2000 विक्रमवर्षीयाधिनियमं संशोधयितुं निर्मितं विधेयकं स्थानीयस्तराणां पदाधिकारिणाम् अथ च सदस्यानां सौविध्येन सम्बद्धं 67+2000 विक्रमवर्षीयाधिनियमं संशोधयितुं निर्मितं विधेयकं च पञ्जीकृते स्तः। प्रदेश मन्त्री परिषदा लुम्बिनी प्रज्ञा प्रतिष्ठानस्य स्थापनार्थं सञ्चालनार्थं च निर्मितं विधेयकं प्रदेश जीवनाशक विषादि व्यवस्थापन नियमन सम्बद्धं विधेयकं दलित समुदायानाम् अधिकारस्य सुनिश्चयनेन सम्बद्धं विधेयकं च प्रदेशसभायां प्रस्तुतुं स्वीकृतिः प्रदत्ता अस्ति। ऊर्जा जलस्रोत सेचन भौतिक पूर्वाधार यातायात नगरीय विकास मन्त्री कुलमान घिसिङ वर्तमान आर्थिक वर्षस्य प्रथम मासत्रये विकास व्ययस्य न्यूनीभवनस्य कारणां सर्वकारीय वित्तस्य अवरोधो वर्तते इत्युक्तवान् अस्ति। राष्ट्रिय सभा अन्तर्गतायाः सार्वजनिक नीति प्रत्यायोजित विधायन समितेः स्तनोपवेशे मन्त्री घिसिङ त्रिषु मन्त्रालयेषु 1.95 अब्जानां च रूप्यकाणां विकास वित्तस्य अवरोधेन प्रायः कार्याणि प्रभावितानि सन्ति इति अगदत्। अधिकार दुरूपयोग अनुसन्धान आयोगेन हेटौडावर्तिनी स्वास्थ्यापूर्ति व्यवस्थापन केन्द्रे कोविड 19 संक्रमणस्य निरोधनस्य कृते आवश्यक व्यक्तिगत सुरक्षा सामग्रीणां क्रयण प्रक्रियायाम् अनियमितता सम्भूता अस्ति इति निश्चित्य भ्रष्टाचारस्य न्यायिक प्रकरणं पञ्जीकारितं वर्तते। एनपीएल नाम्न्यः नेपाल प्रीमियर लीग इति क्रिकेट क्रीडा श्रृंखलायाः अन्तर्गतायां ह्यः क्रीडितायां क्रीडायां सुदूरपश्चिम रोयल्स इति क्रीडा समूहेन कर्णाली याक्स इति क्रीडा समूह पराजितोऽस्ति। कीर्तिपुरवर्तिनी त्रिभुवन विश्वविद्यालय अन्तर्राष्ट्रिय क्रिकेट क्रीडा प्रांगणे सम्भूतायां क्रीडायां सुदूरपश्चिम रोयल्स समूहेन प्रदत्तं 44+100 लक्ष्यं कर्णाली याक्स समूहेन 2.95 ओवरांकेषु 94 धावनांकान् समर्ज्य सम्पूर्ण क्रीडकाः हापिताः आसन्। तत्पूर्वं प्रथमं क्रीडित्वा सुदूरपश्चिम रोयल्स इति क्रीडा समूहेन नवानां क्रीडकानां क्षेत 49+100 धावनांकाः योजिता आसन्। तत्पूर्वं सम्पन्नायां ह्यस्तन प्रथम क्रीडायां विराटनगर किंग्स इति क्रीडा समूहेन जनकपुर बोल्ट्स समूह 9 धावनांकैः पराजितो वर्तते।